इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य महाराष्ट्र छत्तीसगढ राज्ययोः यात्रायां भविष्यति। महाराष्ट्रे श्रीमोदी अद्य प्रातः नागपुरनगरं गमिष्यति। स्मृति मन्दिरे दर्शनं कृत्वा राष्ट्रिय स्वयंसेवक संघस्य संस्थापकाय डॉ केशव हेडगेवर वर्याय, माधव राव गोलवालकर वर्याय च श्रद्धांजलिं समर्पयिष्यति। तदनन्तरं प्रधानमन्त्री दीक्षाभूमिं गत्वा डॉ बी आर अम्बेडकर वर्याय श्रद्धांजलिं समर्पयिष्यति। प्रायः दशवादने श्रीमोदी नागपुरे माधव नेत्रालय केन्द्रस्य शिलान्यासं कृत्वा एकां जनसभां च सम्बोधयिष्यति। प्रधानमन्त्री नागपुर नगरस्य सौररक्षा एरोस्पेस लिमिटेड इत्यत्र यूएवी विमानानां कृते परीक्षण रेंज रनवे इत्यस्याः सुविधायाः उद्घाटनम् अपि करिष्यति। प्रधानमन्त्री सायं सार्धत्रिवादने छत्तीसगढस्य बिलासपुरं गमिष्यति। सः तत्र विभिन्नानां योजनानां आधारशिलास्थापनम् उद्घाटनं च करिष्यति। सप्तशतोत्तरत्रयस्त्रिंशत्सहस्रकोटिरूप्यकाणां व्ययेन बहुविधविकासपरियोजनाः राष्ट्राय समर्पयिष्यति। श्रीमोदी जनसभामेकां च सम्बोधयिष्यति। राज्ये शिक्षासंरक्षणाय यः प्रमुख प्रवर्धन रूपेण प्रधानमन्त्री छत्तीसगढस्य ऊनत्रिंशत् जनपदेषु 30%-ओत्तरैकशतं यावत् पीएम श्री विद्यालयाः समर्पयिष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य 11 स्वकीये मन की बात इत्येतस्मिन् कार्यक्रमे देशवासिभिः साकं विचार विनिमयं करिष्यति। मन की बात इत्यस्य मासिक कार्यक्रमस्य इदं 20%-ओत्तरैकशततमं संस्करणं भविष्यति। अस्य कार्यक्रमस्य प्रसारणं आकाशवाणी दूरदर्शनयोः सर्वाभिः वाहिनीभिः भविष्यति। अयं कार्यक्रमः आकाशवाणी दूरदर्शन प्रधानमन्त्री कार्यालय सूचना प्रसारण मन्त्रालयानां यूट्यूब वाहिनीष्वपि द्रष्टुं शक्यते। प्रधानमन्त्रिणः सम्बोधनानन्तरम् अयं कार्यक्रमः क्षेत्रीय भाषासु अपि प्रसारयिष्यते। म्यान्मार देशे भूकम्पेन पीडितानां संख्या सहस्राधिका जाता। परह्यः दुरापन्नायां दुर्घटनायां यत्र भूकम्पस्य रिक्टर स्केल इति स्तरीयः परिमापः 7.7 आसीत्, सैन्यनेतृत्वयुतेन प्रशासनेन स्वकीये वक्तव्ये उक्तं यत् 600-ओत्तरैकसहस्र जनाः मृताः, प्रायः 3,500 जनाः व्रणिताः सन्ति। अधिकांशतया जनहानिः भूकम्पकेन्द्रस्य निकटवर्तिनि नगरे माण्डले इत्यत्र अजायत। भारतेन आगत भूकम्पादनन्तरं म्यान्मारदेशं प्रति प्रायः 10-टनमिता साहाय्योद्धार सामग्री प्रेषिता। अभियानमिदं ऑपरेशन ब्रह्मेति संज्ञकमस्ति। भारतीय वायुसेनायाः विमानं हिंडन वायुसेना विमान पत्तन स्थानकात् सहायतां प्रेषितवत्। राष्ट्रपति पदासीनया द्रौपदी मुर्मू इत्यनया उक्तं यत् जागरूकता अधिकारतया निरन्तर सक्रियतया च समेषां सामूहिक प्रयासैः एव पर्यावरणस्य संरक्षणं तस्य संवर्धनं च सम्भवम् अस्ति। राष्ट्रपतिना ह्यः नवदिल्ल्याः विज्ञानभवने राष्ट्रिय पर्यावरण सम्मेलनस्य उद्घाटनं कुर्वन्त्या इदमुक्तम्। आईपीएल क्रिकेट स्पर्धा मालिकायां गतसायं अहमदाबादनगरे गुजरात टाइटन्स इत्यनेन दलेन मुंबई इंडियंस इत्येतं दलं 37 धावनांकैः पराजितम् इति वार्ताः।